हरिः गमन्ति गङ्गेयम् विमलतरगीतैव महतो नगाधीशाच्छ्रीमद्रमणमुनिरूपाज्जनिमति पथो वाणीरूपाद्गणपतिकवेर्भक्तहृदयम् समुद्रम् संयाति प्रबलमलहारिण्यनुपदम् अथ प्रथमोऽध्यायः उपासनप्राधान्यनिरूपणम् महर्षिम् रमणम् नत्वा कार्तिकेयम् नराकृतिम् मतन्तस्य प्रसन्नेन ग्रन्थेनोपनिबध्यते ईशपुत्रशके रामभूमिनम् दधरामि ते एकोनत्रिंशद्दिवसे द्वादशे मासि शीतले उपविष्टेषु सर्वेषु शिष्येषु नियतात्मसु भगवन्तमृषिम् सोऽहमपृच्छम् निर्णयाप्तये प्रथमप्रश्नः सत्यासत्यविवेकेन मुच्यते केवलेन किम् उदाहो बन्धहानाय विद्यते साधनान्तरम् द्वितीयप्रश्नः किमलम् शास्त्रचर्चैव जिज्ञासूनाम् विमुक्तये यथा गुरूपदेशम् किमुपासनमपेक्षते तृतीयप्रश्नः स्थितप्रज्ञमात्मानम् किम् समर्थयेत् विजित्वा परिपूर्णत्वम् ज्ञानस्योपरते ऋता चतुर्थप्रश्नः ज्ञानिनम् केन लिङ्गेन ज्ञातुम् शक्ष्यन्ति कोविदाः पञ्चमप्रश्नः ज्ञानायैव समाधिः किम् कामायाप्युतकल्पते षष्ठः प्रश्नः कामेन योगमभ्यस्य स्थितप्रज्ञो भवेद्यदि स कामो मुष्य साफल्यमधिगच्छति वा न वा एवम् मम गुरुः प्रश्नानाकर्ण्यकरुणानिधिः अब्रवीत् संशयच्छेदि रमणो भगवान् ऋषिः प्रथमप्रश्नस्योत्तरम् मोचयेत् सकलान् बन्धानात्मनिष्ठैव केवलम् सत्यासत्यविवेकम् तु प्राहुर्वैराग्यसाधनम् सदा तिष्ठति गम्भीरो ज्ञानी केवलमात्मनि नासत्यम् चिन्तयेद्विश्वम् न वा स्वस्य तदन्यताम् द्वितीयप्रश्नस्योत्तरम् न संसिद्धिर्विजिज्ञासो केवलम् शास्त्रचर्चया उपासनम् विना सिद्धिर्नैव स्यादिति निर्णयः अभ्यासकाले सहजाम् स्थितिम् प्राहुरुपासनम् सिद्धिम् स्थिराम् यदा गच्छेत् सैव ज्ञानम् तदोच्यते विषयान् सम्परित्यज्य स्वस्वभावेन संस्थितिः ज्ञानज्वालाकृतिः प्रोक्ता सहजा स्थितिरात्मनः तृतीयप्रश्नस्योत्तरम् निर्वासनेन मौनेन स्थिरायाम् सहजस्थितौ ज्ञानी ज्ञानिनमात्मानम् निःसन्देहः समर्थयेत् चतुर्थप्रश्नस्योत्तरम् सर्वभूतसमत्वेन लिङ्गेन ज्ञानमोह्यताम् पञ्चमप्रश्नस्योत्तरम् कामारब्धः समाधिस्तु कामम् फलति निश्चितम् षष्ठप्रश्नस्योत्तरम् कामेन योगमभ्यस्य स्थितप्रज्ञो भवेद्यदि स कामो मुष्य साफल्यम् गच्छन्नपि न हर्षयेत् इति श्रीरमण गीतासु ब्रह्मविद्यायाम् योगशास्त्रे रमणान्तेवासिनो वासिष्ठस्य गणपतेरुपनिबन्धे उपासनप्राधान्यनिरूपणम् नाम प्रथमोऽध्यायः अथ द्वितीयोऽध्यायः मार्गत्रयकथनम् ईशपुत्रशके बाणभूमिनम् दधरामिते चातुम् मास्ये जगौसारम् सङ्ग्रह्य भगवान् ऋषिः हृदयकुहरमध्ये केवलम् ब्रह्ममात्रम् ह्यहमहमिति साक्षादात्मरूपेण भाति दिविषमनसास्वम् चिन्वतामज्जता वा पवनचलनरोधादात्मनिष्ठो भवत्वम् श्लोकम् भगवतो वक्त्रान्महर्षेरिममुद्गतम् श्रुत्यन्तसारम् यो वेद संशयो नास्य जातुजित् अत्र श्लोके भगवता पूर्वार्धे स्थानमीदम् शारीरकस्य दृश्येऽस्मिन् शरीरे पाञ्चभौतिके तत्रैव लक्षणम् चोक्तम् द्वैतमीशा च वारितम् उक्तम् चाप्यपरोक्षत्वम् नानालिङ्गनिबर्हणम् उपदेशो द्वितीयार्धे शिष्याभ्यासकृते कृतः त्रेधा भिन्नेन मार्गेण दत्तादैक्यम् समीयुषा उपायो मार्गणाधिक्यः प्रथमः सम्प्रकीर्तितः द्वितीयो मज्जनाभिख्यः प्राणरोधस्तृतीयकः इति श्रीरमणगीतासु ब्रह्मविद्यायाम् योगशास्त्रे रमणान्ते वासिनो वासिष्ठस्य गणपतेरुपनिबन्धे मार्गत्रयकथनम् नाम द्वितीयोऽध्यायः अथ तृतीयोऽध्यायः मुख्यकर्तव्यनिरूपणम् दैवरातस्य संवादमाचार्यरमणस्य च निबध्नीमस्तृतीयेऽस्मिन्नध्याये विदुषाम् मुदे दैवरात उवाच किम् कर्तव्यम् मनुष्यस्य प्रधानमिह संस्कृतौ एकम् निर्धार्य भगवांस्तन्मे व्याख्यातुमर्हति भगवानुवाच स्वस्य स्वरूपम् विज्ञेयम् प्रधानम् महदिच्छत प्रतिष्ठायत्र सर्वेषाम् फलानामुदकर्मणाम् दैवरात उवाच स्वस्य स्वरूपविज्ञाने साधनम् किम् समासतः सिद्ध्येत् केन प्रयत्नेन प्रत्यग्दृष्टिर्महीयसि भगवानुवाच विषयेभ्यः परावृत्यवृत्तेः सर्वाः प्रयत्नतः विमर्शे केवलम् तिष्ठेदचले निरुपाधिके स्वस्य स्वरूपविज्ञाने साधनम् तत्समासतः सिद्ध्येत्तेनैव यत्नेन प्रत्यग्दृष्टिर्महीयसि दैवरात उवाच यावत्सिद्धिर्भवेन्द्रणाम् योगस्य मुनिकुञ्जरा तावन्तम् नियमाः कालम् किम् यत्नमुपकुर्वते भगवानुवाच प्रयत्नमुपकुर्वन्ति नियमायुञ्जताम् सताम् सिद्धानाम् कृतकृत्यानाम् गलन्ति नियमास्वयम् दैवरात उवाच केवलेन विमर्शेन स्थिरेण निरुपाधिना यथा सिद्धिस्तथा मन्त्रैर्जप्तैस्सिद्धिर्भवेन्न वा भगवानुवाच अचञ्चलेन मनसा मन्त्रैर्जप्तैर्निरन्तरम् सिद्धिस्याच्छर्धधानानाम् जप्तेन प्रणवेन वा वृत्तिर्जपेन मन्त्राणाम् शुद्धस्य प्रणवस्य वा विषयेभ्यः परावृत्ता स्वस्वरूपात्मिका भवेत्। ईशपुत्रशके शैलभूमिनन्दधरामि ते सप्तमे सप्तमे सोऽयम् संवादो भवदद्भुतः। इति श्रीरमणगीतासु ब्रह्मविद्यायाम् योगशास्त्रे रमणान्देवासिनो वासिष्ठस्य गणपतेरुपनिबन्धे मुख्यकर्तव्यनिरूपणम् नाम तृतीयोऽध्यायः। अथ चतुर्थोऽध्यायः ज्ञानस्वरूपकथनम्। प्रथमप्रश्नः, अहम् ब्रह्मास्मीति वृत्तिः किम् ज्ञानम् मुनिकुञ्जर? उत ब्रह्माहमिति धीर्धीरहम् सर्वमित्युत? अथवा सकलम् चैतद्ब्रह्मेति ज्ञानमुच्यते? अस्माद्वृत्तिचतुष्काद्वा किन्नु ज्ञानम् विलक्षणम्? अस्योत्तरम्, इमम् मम गुरुः प्रश्नमन्ते वासिन आदरात्। आकन्यरमणो वाक्यमुवाच भगवान् मुनिः, वृत्तयो भावना एव सर्वा एतान संशयः। स्वरूपावस्थितिम् शुद्धाम् ज्ञानमाहुर्मनीषिणः। गुरोर्वचस्तदाकन्यसंशयच्छेदकारकम्। अपृच्छम् पुनरेवाहमन्यम् संशयमुद्गतम्। द्वितीयः प्रश्नः, प्रत्यव्याप्यम् भवेद् ब्रह्मनवानाथतपस्विनाम्। इमम् मे हृदि सञ्जातम् संशयम् छेत्तुमर्हसि। तमिमम् प्रश्नमाकर्ण्य मित्रमङ्घ्रिजुषा ऋषिः, अभिषिच्य कटाक्षेण मामिदम् वाक्यमब्रवीत्। अस्योत्तरम्, स्वात्मभूतम् यदि ब्रह्म ज्ञातुम् वृत्तिः प्रवर्तते, स्वात्माकारा तदा भूत्वा न पृथक् प्रतिष्ठति। अयम् प्रागुक्त एवाब्धे सप्तमेत्येकविंशके अभवन्नौ विदग्रन्थः संवादो रोमहर्षणः। इति श्रीरमणगीतासु ब्रह्मविद्यायाम् योगशास्त्रे रमणान्तेवासिनो वासिष्ठस्य गणपतेरुपनिबन्धे ज्ञानस्वरूपकथनम् नाम चतुर्थोऽध्यायः। अथ पञ्चमोऽध्यायः, हृदयविद्या। प्रागुक्तेऽर्देष्टमे मासि नवमे दिवसे निशि उपन्यसि तवाम् सम्यगुद्दिश्य हृदयम् मुनिः। निर्गच्छन्ति यतः सर्वा वृत्तयो देहधारिणाम्। हृदयम् तत्समाख्यातम् भावनाकृतिवर्णनम्। अहम् वृत्तिः समस्तानाम् वृत्तीनाम् मूलमुच्यते। निर्गच्छति यतो हन्धेर्हृदयम् तत्समासतः। हृदयस्य यदि स्थानम् भवेच्चक्रमनाहतम्, मूलाधारम् समारभ्य योगस्योपक्रमः कुतः? अन्यदेव ततो रक्तपिण्डाच्छृदयमुच्यते। अयम् हृदिति वृत्त्या तदात्मनो रूपमीरितम्। तस्य दक्षिणतो धाम हृत्पीठेनैव वामतः। तस्मात् प्रवहति ज्योतिः सहस्रारम् सुषुम्नया। सर्वम् देहम् सहस्रारात् तदा लोकानुभूतयः। ताः प्रवश्यन्निभेदेन संसारी मनुजो भवेत्। आत्मस्थस्य सहस्रारम् शुद्धम् ज्योतिर्मयम् भवेत्। तत्र जीवेन्न सङ्कल्पो यदि सान्निध्यतः भवेत्। विज्ञायमानविषयम् सन्निकर्षेण यद्यपि न भवेद्योगभङ्गाय भेदस्याग्रहणे मनः। गृह्णतोऽपि स्थिरैकाधीः सहजा स्थितिरुच्यते। నిర్వికల్పః సమాధిస్తు విషయా సన్నిధౌ భవేత్. అండం వపుషి నిశ్శేషం నిశ్శేషం హృదయే వపుః. తస్మాదండస్య సర్వస్య హృదయం రూపసంగ్రహః. భువనం మనసో నాన్యదన్యం న హృదయాన్ మనః. అశేషా హృదయే తస్మాత్ కథా పరిసమాప్యతే. కీర్త్యతే హృదయం పిండే యథాండే భానుమండలం. మనః సహస్రారగతం బింబం చాంద్రమసంయథా. యథా దదాది తపనస్తేజః కైరవబంధవే. ఇదం వితరతి జ్యోతిర్హృదయం మనసే తథా. హృద్య సన్నిహితో మర్త్యో మనః కేవలమీక్షతే. అసన్నికర్షే సూర్యస్య రాత్రౌ చంద్రే యథా మహః. అపశ్యం స్తేజసో మూలం స్వరూపం సత్యమాత్మనః. మనసా చ పృథక్ పశ్యన్ భావాన్ భ్రామ్యతి పామరః. హృది సన్నిహితో జ్ఞానీ లీనం హృదయ తేజసీ. ఈక్షతే మానసం తేజో దివా భానావివైందవం. ప్రజ్ఞానస్య ప్రవేత్తారో వాచ్యమర్థం మనోవిదుః. అర్థం తు లక్ష్యం హృదయం హృదయాన్నాపరః పరః. దృగ్దృశ్యభేదధీరేషా మనసి ప్రతిష్ఠతి. హృదయే వర్తమానానాం దృగ్దృశ్యం చైకతాం వ్రజేత్. మూర్ఛా నిద్రాతి సంతోషశోకావేషభయాదిభిః. నిమిత్తైరాహతా వృత్తిస్వస్థానం హృదయం వ్రజేత్. తదా న జ్ఞాయతే ప్రాప్తిర్హృదయస్య శరీరిణా. విజ్ఞాయతే సమాధౌ తు నామ భేదో నిమిత్తతః. ఇది శ్రీరమణ గీతాసు బ్రహ్మవిద్యాయాం యోగశాస్త్రే. రమణాంతే వాసినో వాసిష్ఠస్య గణపతేరుపనిబంధే హృదయ విద్యా నామ పంచమోధ్యాయః. అథ షష్ఠోధ్యాయః మనో నిగ్రహోపాయః. నిరూప్య హృదయశ్రీవం తత్వం తత్వవిదాంబరః. మనసో నిగ్రహోపాయమవదద్రమణో మునిః. నిత్యవృత్తిమతాం నృణాం విషయాసక్తచేతసాం. వాసనానాం వరీయస్వాన్మనో దుర్నిగ్రహం భవేత్. చపలం తన్నిగృహీయాత్ ప్రాణరోధేన మానవః. పాశబద్ధో యథా జంతుస్తథా చేతో న చేష్టతే. ప్రాణరోధేన వృత్తీనాం నిరోధః సాధితో భవేత్. వృత్తిరోధేన వృత్తీనాం జన్మస్థానే స్థితో భవేత్. ప్రాణరోధశ్చ మనసా ప్రాణస్య ప్రత్యవేక్షణం. కుంభకం సిద్ధ్యతి హ్యేవం సతత ప్రత్యవేక్షణాత్. ఏషాం నేతేన విధినా శక్తిః కుంభక సాధనే. పఠయోగ విధానేన తేషాం కుంభకమిష్యతే. ఏకదారేచకం కురియాత్ కురియాత్ పూరకమేకదా. కుంభకం తు చతుర్వారం నాడీ శుద్ధిర్భవేత్తదః. ప్రాణో నాడీషు శుద్ధాసు నిరుద్ధః క్రమశో భవేత్. ప్రాణస్య సర్వధారోధః శుద్ధం కుంభకముచ్యతే. త్యాగం దేహాత్మభావస్య రేచకం జ్ఞానినః పరే. పూరకం మార్గణం స్వస్య కుంభకం సహజస్థితిం. జపేన వాచ మంత్రాణాం మనసో నిగ్రహో భవేత్. మానసేన తదా మంత్ర ప్రాణయోరేకతా భవేత్. మంత్రాక్షరాణాం ప్రాణేన సాయుజ్యం ధ్యానముచ్యతే. సహజస్థితయే ధ్యానం దృఢభూమి ప్రకల్పతే. సహవాసేన మహతాం సతామారూఢచేతసాం. क्रियमाणेन वानित्यम् स्थाने लीनम् मनो भवेत् इति श्रीरमणगीतासु ब्रह्मविद्यायाम् योगशास्त्रे रमणान्ते वासिनो वासिष्ठस्य गणपतेरुपनिबन्धे मनो निग्रहोपायो नाम षष्ठोऽध्यायः अथ सप्तमोऽध्यायः आत्मविचाराधिकारितदङ्गनिरूपणम् भारद्वाजस्य वैकार्ष्णेराचार्यरमणस्य च अध्याये कथ्यते श्रेष्ठः संवाद इह सप्तमे कार्ष्णिरुवाच रूपमात्मविचारस्य किन्नु किम् वा प्रयोजनम् लभ्यादात्मविचारेण फलम् भूयोऽन्यतोऽस्ति वा भगवानुवाच सर्वासामपि वृत्तीनाम् समष्टिर्या समीरिता अहम् वृत्तेरमुष्यास्तु जन्मस्थानम् विमृश्यताम् एष आत्मविचारस्यान्न शास्त्रपरिशीलनम् अहङ्कारो विलीनस्यान्मूलस्थानगवेषणे आत्माभासस्त्वहङ्कारः स यदा सम्प्रलीयते आत्मा सत्योऽभितः पूर्णः केवलः परिशिष्यते सर्वक्लेशनिवृत्तिस्यात्फलमात्मविचारतः फलानामवधिः सोऽयमस्ति नेतोऽधिकम् फलम् अद्भुतास्सिद्धयः साध्या उपायान्तरतश्चयाः ताः प्राप्तोऽपि भवत्यन्ते विचारेणैव निर्वृतः कार्ष्णिरुवाच एतस्यात्मविचारस्य प्राहुः कमधिकारिणम् अधिकारस्य सम्पत्तिः किम् ज्ञातुम् शक्यते स्वयम् भगवानुवाच उपासनादिभिः शुद्धम् प्राग्जन्म सुकृतेन वा दृष्टदोषम् मनो यस्य शरीरे विषयेषु च मनसाचरतो यस्य विषयेष्वरुचिर्भृशम् देहे चानित्यता बुद्धिस्तम् प्राहुरधिकारिणम् देहे नश्वरता बुद्धेर्वैराग्याद्विषयेषु च एताभ्यामेव लिङ्गाभ्याम् ज्ञेया स्वस्याधिकारिता कार्ष्णिरुवाच स्नानम् सन्ध्याजपो होमस्वाध्यायो देवपूजनम् सङ्कीर्तनम् तीर्थयात्रा यज्ञो दानम् व्रतानि च विचारे साधिकारस्य वैराग्याच्च विवेकतः किम् वा प्रयोजनाय स्युरुतकालविधूतये भगवानुवाच आरम्भिणाम् क्षीयमाणरागाणामधिकारिणाम् कर्माण्येतानि सर्वाणि भूयस्यै चित्तशुद्धये यत्कर्म सुकृतम् प्रोक्तम् मनोवाक्कायसम्भवम् तत्तु कर्मान्तरम् हन्ति मनोवाक्कायसम्भवम् अत्यन्तशुद्धमनसाम् पक्वानामधिकारिणाम् इदम् लोकोपकाराय कर्मजालम् भविष्यति परेषामुपदेशाय क्षेमाय च मनीषिणः पक्वाश्च कर्म कुर्वन्ति भयान्नादेशशास्त्रतः विचारप्रतिकूलानि न पुण्यानि न वर्षभा क्रियमाणान्यसङ्गेन भेदबुद्ध्युपवर्धिना न चाकृतानि पापाय पक्वस्यात्मविमर्शिनः स्वविमर्शो महत्पुण्यम् पावनानाम् हि पावनम् दृश्यते द्विविधा निष्ठा पक्वानामधिकारिणाम् त्याग एकान्तयोगाय परार्थम् च क्रियादरः कार्ष्णिर्वाच निर्वाणायास्ति चेदन्यो मार्ग आत्मविचारतः एको वा विविधस्तं मे भगवान् वक्तुमर्हति। भगवानुवाच एकः प्राप्तुं प्रयतते परः प्राप्तारपृच्छति। चिराय प्रथमो गच्छन् प्राप्तोऽत्यात्मानमन्तरः। एकस्य ध्यानतश्चित्तमेकाकृति भविष्यति। एकाकृतित्वम् चित्तस्य स्वरूपे स्थितये भवेत्। अनिच्छयाप्यतोऽध्यायन् विन्दत्यात्मनि संस्थितिम्। विचारकस्तु विज्ञाय भवेदात्मनि संस्थितः। ध्यायतो देवताम् मन्त्रमन्यद्वा लक्ष्यमुत्तमम्। ध्येयमात्ममहाज्योतिष्यन्ततो लीनताम् व्रजेत्। गतिरेवम् द्वयोरेकाध्यातुश्चात्मविमर्शिनः। ध्यायन्नेकः प्रशान्तस्यादन्यो विज्ञाय शाम्यति। इति श्रीरमणगीतासु ब्रह्मविद्यायाम् योगशास्त्रे रमणान्ते वासिनो वासिष्ठस्य गणपतेरुपनिबन्धे आत्मविचाराधिकारितदङ्गनिरूपणम् नाम सप्तमोऽध्यायः। अथ अष्टमोऽध्यायः आश्रमविचारः। काष्ठैरेवापरम् प्रश्नम् निशम्य भगवान् मुनिः चातुराश्रम्यसम्बन्धमधिकारम् न्यरूपयत्। ब्रह्मचारी गृहीवापि वा न प्रस्तोत वायतिः। नारी वा वृषदो वापि पक्वो ब्रह्म विचारयेत्। सोपानवत्परम् प्राप्तुम् भविष्यत्याश्रमक्रमः। अत्यन्तपक्वचित्तस्य क्रमापेक्षा न विद्यते। गतये लोककार्याणामादिश्यन्त्याश्रमक्रमम्। आश्रमत्रयधर्माणाम् न ज्ञानप्रतिकूलता। सन्न्यासो निर्मलम् ज्ञानम् न काषायो न मण्डनम्। प्रतिबन्धकबाहुल्यपारणायाश्रमो मतः। ब्रह्मचर्याश्रमे यस्य शक्तिरुद्रम् भजे व्रतैः। विद्यया ज्ञानवृद्ध्या च तपश्चात्प्रद्वरिष्यति। ब्रह्मचर्येण शुद्धेन गृहीत्वे निर्मलो भवेत्। सर्वेषामुपकाराय गृहस्थाश्रम उच्यते। सर्वथा वीतसङ्गस्य गृहस्थस्यापि देहिनः। परम् प्रस्फुरति ज्योतिस्तत्त्वमेवास्ति संशयः। तपसस्त्वाश्रमः प्रोक्तस्तृतीयः पण्डितोत्तमैः। अभार्यो वा सभार्यो वा तृतीयाश्रमभाग् भवेत्। तपसा दग्धपापस्य पक्वचित्तस्य योगिनः। चतुर्थ आश्रमः काले स्वयमेव भविष्यति। एष पागुक्त एवाब्दे त्वष्टमे द्वादशे पुनः। उपदेशो भगवतः सप्तमाष्टमयोरभूत्। इति श्रीरमणगीतासु ब्रह्मविद्यायाम् योगशास्त्रे रमणान्ते वासिनो वासिष्ठस्य गणपतेरुपनिबन्धे आश्रमविचारो नाम अष्टमोऽध्यायः। अथ नवमोऽध्यायः ग्रन्थिभेदकथनम्। चतुर्दशेष्टमे रात्रौ महर्षिम् पृष्टवानहम्। ग्रन्थिभेदम् समुद्दिश्य विदुषाम् यत्र संशयः। समाकर्ण्य मम प्रश्नम् रमणो भगवान् ऋषिः। ध्यात्वा दिव्येन भावेन किञ्चिदाहमहामहाः। शरीरस्यात्मनश्चापि सम्बन्धो ग्रन्थिरुच्यते। सम्बन्धेनैव शारीरम् भवति ज्ञानमात्मनः। शरीरम् जडमेतत्स्यादात्मा चैतन्यमिष्यते। उभयोरपि सम्बन्धो विज्ञानेनानुमीयते चैतन्यच्छाययाश्लिष्टम् शरीरम् तातचेष्टते निद्रादौ ग्रहणाभावादूह्यते स्थानमात्मनः सूक्ष्माणाम् विद्युदादीनाम् स्थूले तन्त्र्यादिके यथा तथा कलेबरेणाड्याम् चैतन्यज्योतिषो गतिः स्थलमेकमुपाश्रित्य चैतन्यज्योतिरुज्ज्वलम् सर्वम् भासयते देहम् भास्करो भुवनम् यथा व्याप्तेन तत्प्रकाशेन शरीरे तनुभूतयः स्थलम् तदेव हृदयम् सूरयः सम्प्रचक्षते नाडीशक्तिविलासेन चैतन्याम् श्रुतिर्मता देहस्य शक्तयः सर्वाः पृथङ् नाडीरूपाश्रिताः चैतन्यम् तु पृथङ् नाड्याम् ताम् सुषुम्नाम् प्रचक्षते आत्मनाडीम् परामेके परे त्वमृतनाडिकाम् सर्वम् देहम् प्रकाशेन व्याप्तो जीवोऽभिमानवान् मन्यते देहमात्मानम् तेन भिन्नम् च विष्टवम् अभिमानम् परित्यज्य देहे चात्मधियम् सुखीः विचारयेच्चेदेकाग्रो नाडीनाम् मथनम् भवेत् नाडीनाम् मथनेनैव आत्मा ताभ्यः पृथक्कृतः केवलामृताम् नाडीमाश्रित्य प्रज्वलिष्यति आत्मनाड्याम् यथा भाति चैतन्यज्योतिरुज्ज्वलम् केवलायाम् तदा नान्यथात्मनः सम्प्रभासते तान्यध्याध्वासमानम् वा न पृथक् प्रतिष्ठति जानाति स्पष्टमात्मानम् सदेहमिव पामरः आत्मैव भासते यस्य बहिरन्तश्च सर्वतः पामरस्येव रूपादिसभिन्नग्रन्थिरुच्यते नाडीबन्धोऽभिमानश्च द्वयम् ग्रन्थिरुदीर्यते नाडीबन्धेन सूक्ष्मोऽपि स्थूलम् सर्वम् प्रपश्यति निवृत्तम् सर्वनाडीभ्यो यदैकाम् नाडिकाम् श्रितम् भिन्नग्रन्थिरथा ज्योतिरात्मभावाय कल्पते अग्नितप्तमयो गोलम् दृश्यते अग्निमयम् यथा स्वविचाराग्निसन्तप्तम् तथेदम् स्वमयम् भवेत् शरीरादिदुषाम् पूर्ववासनानाम् क्षयस्तदा कर्तृत्वमशरीरत्वान्नैव तस्य भविष्यति कर्तृत्वाभावतः कर्म विनाशोऽस्य समीरितः तस्य वस्त्वन्तराभावात् संशयानामनुद्भवः भविता न पुनर्बद्धो विभिन्नग्रन्थिरेकदा सा स्थितिः परमाशक्तिः सा शान्तिः परमा मता इति श्रीरमणगीतासु ब्रह्मविद्यायाम् योगशास्त्रे रमणान्तेवासिनो वासिष्ठस्य गणपतेरुपनिबन्धे ग्रन्थिभेदकथनम् नाम नवमोऽध्यायः।